इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्य वार्ताः। विज्ञान प्रौद्योगिकी मन्त्रिणा डॉक्टर जितेन्द्र सिंहेन स्पैडेक्स इत्यस्य सफल प्रक्षेपणाय इसरो इत्येतस्य वैज्ञानिकानां भूरिशः प्रशंसा कृता। विदेशमंत्री डॉक्टर एस जयशंकरः अवोचत् यत् क्वाड इति शिखर सम्मेलनं हिंद प्रशांत क्षेत्रस्य स्थिरतायै, प्रगतये, समृद्धये च एकेन महत्वपूर्ण शक्तित्वेन विराजते। विदेशमंत्रालयेन ख्यापितं यत् यमनदेशे निवसत्यै भारतीय परिचारिकायै यमन प्रशासनेन श्रावितस्य मृत्युदण्डस्य प्रसंगे केन्द्र प्रशासनं सर्वविध प्रयासाय आश्वासनं प्रदत्तवत्। पञ्चविंशत्युत्तर द्विसहस्रतम वर्षस्य ख्रिस्ताब्दस्य स्वागताय आराष्ट्रं जनाः सज्जताः सन्तीति। अपि च हॉकी इंडिया लीग इत्येतस्यां प्रतिस्पर्धायां अद्य दिल्ली एसजी पाइपर्स दलस्य सामुख्यं रात्रौ हैदराबाद तूफान्स इत्यनेन दलेन साकं निश्चितम् अस्ति। इदानीं वार्ताः विस्तरेण। केन्द्रीय परमाणूर्जान्तरिक्ष राज्यमन्त्रिणा डॉक्टर जितेन्द्र सिंहेन उक्तं यत् निवर्तमान वर्षोऽयं भारतीयान्तरिक्ष क्षेत्रस्य कृते अतीव महत्वपूर्णः आसीत्। नवदिल्ल्याम् अद्य वार्ताहरान् सम्बोधयन् श्रीसिंहः उक्तवान् यत् वर्षस्यास्य प्रथमदिवसः एक्स्पोसेट् इत्येतस्य प्रक्षेपणेन सह समारब्धः। तदनन्तरम् आदित्य L1 इत्यभियानं तस्य लक्षित हेलो इत्याख्यायां कक्षायां स्थापितम्। पुनश्च अगस्तमासे प्रथमः राष्ट्रियान्तरिक्षदिवसः परिपालितः। ह्यश्च भारतीयान्तरिक्ष अनुसन्धान संघटनम् इत्यनेन स्पेडेक्स इत्याख्यम् अभियानं समारब्धम्। तेनोक्तं यत् वर्षेऽस्मिन् गगनयानाभियानाय अपि एकाधिकानि परीक्षणानि विहितानि। डॉक्टर सिंहेन अग्रे प्रोक्तं यत् परीक्षणानि प्रायः सम्पूरितानि सन्ति। अग्रिमे च वर्षे कस्मिन्नपि काले एकया महिला रोबोट इत्यनया साकम् अस्य पूर्वाभ्यासः विधास्यते। श्रीसिंहेन उक्तं यत् संयोजन प्रौद्योगिक्यै स्पेडेक्स इति अभियानं भारतपक्षतः सकृतेषु प्राथमिक प्रयोगेषु एकम् अस्ति। श्रीजितेन्द्र सिंहेन स्पेडेक्स इत्येतस्य सफल प्रक्षेपणाय वैज्ञानिकानां भूरिशः प्रशंसा अपि कृता। विदेशमंत्री डॉक्टर एस जयशंकरः अवोचत् यत् क्वाड इति शिखर सम्मेलनं हिंद प्रशांत क्षेत्रस्य स्थिरतायै, प्रगतये, समृद्धये च एकेन महत्वपूर्ण शक्तित्वेन विराजते। एकस्मिन् सामाजिकान्तर्जालीय संदेश पटले डॉक्टर जयशंकरः जापान देशीयेन विदेशमंत्रिणा ताकेशी इवाय इत्यमुना, अमेरिका देशीयेन च विदेशमंत्रिणा एंटनी ब्लिंकन इत्यमुना च मिलित्वा अस्य क्षेत्रस्य आवश्यकतां प्रपूरयितुं प्रतिबद्धताम् उररीकृतवान्। क्वाड इत्येतस्य 20तमे वार्षिक सम्पूर्त्यवसरे क्वाड इत्येतस्य विदेशमन्त्रिणाम् एकस्मिन् संयुक्तोपवेशनस्य वक्तव्ये अभिहितं यत् आपदुद्धार कार्याणाम् आपत्कालिक प्रतिक्रियायाः कार्यम् अधुना एकस्मिन् पूर्ण सहभागे परिवर्तितम्। अपि च इदं सूच्यते यत् क्वाड समूहस्य देशाः सम्प्रति हिन्द प्रशांत क्षेत्रस्य सहभागिभिः देशैः सह ऐक्यभावनया सह कार्यं करोति। अवध्यास्पदं वर्तते यत् क्वाड समूहस्य देशाः ऋतुदशा परिवर्तन, कर्करोग, महामारी इत्येतान् विषयान्, आतंकवाद, आन्तर्जालिकापराध सदृशेषु समाह्वानेषु ध्यानकेन्द्रितं कुर्वन्ति। एतस्मिन् सामूहिक वक्तव्ये प्रख्यापितं यत् चतुर्भिः देशैः सुनामी इत्यस्मात् सागरीय झंझावातात् प्रभावितानां लक्षशः जनानां सहायतायै हिन्द प्रशांत क्षेत्रे 40,000+ आपत्कालिक प्रतिक्रिया दलस्य अन्येषां सहयोगिनां च योगदानं प्रदत्तम्। ध्यातव्यमस्ति यत् क्वाड इति चतुर्णां देशानां एकः समूहः विद्यते यस्मिन् ऑस्ट्रेलिया, भारत, जापान, अमेरिका देशाः समाविष्टाः सन्ति। अनेन समूहेन 4,200,000 वर्षे हिन्द प्रशांत क्षेत्रे भूकंप सुनामी इत्येताभ्यां प्रभावित जनानां सहाय्यार्थं पारस्परिकरूपेण कार्यं विहितमासीत्। विदेशमन्त्रालयेन ख्यापितं यत् यमनदेशे निवसत्यै भारतीय परिचारिकायै निमिषाप्रियायै यमनप्रशासनद्वारा श्रावितस्य मृत्युदण्डस्य प्रसंगे केन्द्रप्रशासनं सर्वविधप्रयासं करिष्यति। एतस्मिन् प्रसंगे वार्ताहराणां प्रश्नानां प्रत्युत्तरे विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवाल सूचितवान् यत् प्रशासनं यमनस्य घटनया परिचितमस्ति। तेन अग्रे निगदितं यत् मन्त्रालयः विजानाति यत् सुश्री प्रियायाः परिवारः प्रासंगिक विकल्पान् अपि अन्वेषयति। संचार माध्यमानुसारि सुश्री प्रिया केरल वास्तव्या अस्ति, अपि च यमनदेशे हत्यायाः अपराधे दण्डिता अस्ति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशेऽपि समुपलब्धो भविष्यति। पञ्चविंशत्युत्तर द्विसहस्रतमस्य ख्रिस्ताब्दस्य स्वागताय आराष्ट्रं जनाः सन्नद्धाः सन्ति। नववर्षस्य पूर्वसन्ध्यायां मार्गाः सम्मर्दयुताः, उत्सवस्थलानि पाकस्थलानि च जनाधिकानां स्वागतोत्सुकानि प्रतीयन्ते। राष्ट्रस्य राजधान्यां दिल्लीत महानगरे यातायात आरक्षिविभागेन यातायात सम्बद्धा विज्ञप्तिः निस्सारिता। यातायात आरक्षिविभागस्य अतिरिक्त महानिदेशकेन गुप्ता दिनेश कुमारेण उक्तं यत् नियन्त्रात्मक दिङ्निर्देशाः अद्य रात्रौ अष्टवादनतः पालनीयाः भविष्यन्ति। कनॉट प्लेस इत्येतस्य समवर्तीषु क्षेत्रेषु सर्वविध वाहनानां तावन्निषेधो वर्तते यावन् वर्षारम्भोत्सवः समाप्तिं न गच्छेत्। तेनोक्तं यत् नववर्षस्य उत्सवं ध्यात्वा आरक्षिणां सक्रिया सन्नद्धता नवदिल्ली इण्डिया गेट सहित समवर्तीषु क्षेत्रेषु अपि भविष्यति। हिमाचलप्रदेशोऽपि नववर्षस्य स्वागताय सर्वविध सन्नद्धता पुरस्सरं स्थितोऽस्ति। सम्प्रति हिमपात कालत्वात् अत्यधिक संख्यायां जनाः तत्र पर्यटनाय गन्तुकामाः सन्ति, फलतः यातायात अवरोधः सिमला मनालीत्यादिषु क्षेत्रेषु प्राचुर्येण दृश्यते। एतन्मध्ये पुदुचेरी अपि स्वकीयेषु समुद्रतटेषु यात्रिणां स्वागताय सन्नद्धा अस्ति। आराष्ट्रात् सहस्रशः जनाः अस्योत्सवस्य परिपालनाय विभिन्नानि स्थलानि यावत् जिगमिषन्तः प्रतीयन्ते। उत्तराखण्डोऽपि ख्रिस्तीय नववर्षस्य स्वागताय पर्यटकानां च अभिवादनाय सन्नद्धा भूतोऽस्ति। भारतीय ऋतुविज्ञान विभागेन अद्य ओडिशा, असम, पश्चिम बंगाल, सिक्किम, मेघालय, मणिपुर, नागालैंड, त्रिपुरा राज्येषु कुञ्झटिका अनुमानिता। आगामिषु त्रिषु दिवसेषु पंजाब, हरियाणा, उत्तराखण्ड, उत्तरप्रदेश, राजस्थान, हिमाचल प्रदेशेषु अपि तादृशी स्थितिः अनुमीयते। ऋतुविज्ञान विभागानुसारं जम्मू कश्मीर, लद्दाख, हिमाचल प्रदेशेषु अद्य शीतलहरी अनुभूता। सप्ताहान्तं यावत् जम्मू कश्मीरे हिमवृष्टिः, अपि च उत्तर पश्चिम भारते मध्यमस्तरीया वृष्टिः अनुमानिता अस्ति। केन्द्रीय प्रत्यक्ष करमण्डलेन निवर्तमानाय वित्तवर्षाय विलम्बितं संशोधितञ्च आयकर प्रत्यावर्तनस्य तिथिः जनवरी मासस्य 15 दिनांकपर्यन्तम् अग्रे सारितास्ति। इतः पूर्वं करदातृभ्यः विलम्बितानां संशोधितानाञ्च आयकर विवरण पत्राणां प्रतिवेदनस्य अद्य अन्तिमः दिवसः आसीत्। दिल्ली विधानसभा निर्वाचनात् प्राक् दिल्ल्यां राजनीति समराङ्गणः सजवतां भजते, यतोहि भाजपेति दलेन आम आदमी पार्टीति प्रशासनम् आरोपयत् भित्तिफलकानि संश्लेषितानि। भाजपेति दलमुख्यालयात् बहिः प्रचारफलकेषु आपदलस्योपरि नगरनगरे भ्रष्टाचार दुःशासनयोः आरोपाः समारोपिताः सन्ति। भाजपेति दलेन दिल्ल्यां सत्तारूढे दले वायुप्रदूषणं, कथितरूपेण प्रतिकूलस्वास्थ्यसौविध्यं, जलसङ्कटादिभिः सह अन्येषु विषयेष्वपि आक्षेपाः सन्ति आरोपिताः। एतन्मध्ये भाजपा दल प्रवक्त्रा गौरव भाटिया इत्यनेन राष्ट्रिय मानवाधिकार पक्षतः आदिशी अरविन्दयोः एक्स मध्ये सम्प्रेषितयोः सन्देशयोः अपसारणादेशादनन्तरं प्रत्यारोपयता उक्तं यत् राजनीतिक अभियानादिषु बालानां प्रयोगः कृतः इति। हॉकी इण्डिया लीग इत्येतस्यां प्रतिस्पर्धायाम् अद्य दिल्ली एसजी पाइपर्स दलस्य सामुख्यं राउरकेलायां रात्रौ हैदराबाद तूफान्स इत्यनेन दलेन साकं निश्चितम् अस्ति। अस्याः प्रतिस्पर्धायाः प्रसारणम् अद्य रात्रौ सपादाष्टवादने भविष्यति इति वार्ताः।